इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः आदौ मुख्य वार्ताः राज्यसभायाम् ऑपरेशन सिन्दूर इति विषये पुनः चर्चा आरब्धा विदेशमन्त्री डॉ एस जयशंकरः अभियानकाले सशस्त्र सेनायाः प्रदर्शनस्य प्रशंसाम् अकरोत् केन्द्रीय रेलमन्त्री अश्विनी वैष्णवः अवदत् यत् वर्षत्रयाणाम् अल्पावधौ सर्वाणि राज्यानि वन्दे भारत इति रेलसेवया आच्छादितानि सन्तीति श्रीहरिकोटायाः सतीश धवन अन्तरिक्षकेन्द्रात् अद्य सायंकाले इसरो नासा इत्येतयोः सहयोगेन निसार इति उपग्रहः सफलतया प्रक्षेपितः अपि च रूसदेशस्य कमचत्का द्वीपकल्पं निकषा प्रचण्ड भूकम्पानन्तरं संयुक्तराज्य अमेरिकादेशस्य रूसदेशस्य जापानदेशस्य हवाईदेशस्य च केषुचित् भागेषु सुनामितरङ्गाः आगताः सम्पूर्णे प्रशान्तक्षेत्रे अपि पूर्वसूचनाः प्रदत्ताः सन्ति अथ वार्ताः विस्तरेण अथ वार्ताः विस्तरेण पहलगामे जातस्य आतंकाक्रमणस्य प्रतिक्रियारूपेण भारतस्य प्रबलस्य सफलस्य निर्णायकस्य च ऑपरेशन सिन्दूर इत्यस्य विषये राज्यसभायां पुनः चर्चा आरब्धा चर्चायां भागं गृह्णन् विदेशमन्त्री डॉ एस जयशंकरः ऑपरेशन सिन्दूर इत्यस्य स्थगने मध्यस्थता अभियोगान् निराकृतवान् सः अवदत् यत् अस्मिन् वर्षे द्वाविंशति एप्रिलतः 16 जून पर्यन्तं प्रधानमन्त्रिणा नरेन्द्रमोदिना अमेरिकादेशस्य राष्ट्रपतिना डोनाल्ड ट्रम्पेन सह कथञ्चिदपि दौर्भाषिक वार्तालापः न कृतः सः अवदत् यत् कोऽपि विश्वनेता भारतं तस्य कार्याणि स्थगयितुं नोक्तवान् इति सः अवदत् यत् अमेरिकादेशस्य उपराष्ट्रपतिना सह वार्तालापकाले भारतं स्वपक्षं स्पष्टम् अकरोत् यत् यदि पाकिस्तानः आक्रमणं करोति तर्हि भारतं महदाक्रमणं कृत्वा प्रतिक्रियां करिष्यति इति ऑपरेशन सिन्दूर इत्यस्य सफलतायाः विषये मन्त्री अवदत् यत् पाकिस्तानस्य बहावलपुर मुरीड्के इत्यादीनां बृहत्तमानां भयोत्पादककेन्द्राणां महती क्षतिः अभवदिति सः अवदत् यत् पाकिस्तानस्य विमानस्थलानां विनाशः पाकिस्ताने भयोत्पादकानाम् अन्त्येष्टिक्रियाचित्राणि च ऑपरेशन सिन्दूर इत्यस्य सफलतायाः विषये वदन्ति सः सशस्त्रसेनायाः प्रदर्शनस्य क्षमतायाश्च प्रशंसाम् अकरोत् येन देशः गौरवान्वितः अभवत् सः अवदत् यत् पहलगाम भयोत्पादक आक्रमणस्य हेतुः जम्मूकश्मीरस्य अर्थव्यवस्थायाः विनाशः आसीदिति
It's a privilege to participate in the discussion on Operation Sindoor. And like everybody else in this house, I laud the performance of our armed forces and the results that have done this country so proud. The Pahalgam attack happened on April 22nd. Across the world, there was solidarity. But the question was, what after? And the answers were two. One, such an attack was absolutely unacceptable. It crossed our red lines. There had to be severe consequences. And two, there had to be accountability and justice.
मन्त्री अवदत् यत् भारतदेशः गतदशके आतंकवादेति विषयं वैश्विककार्यसूच्यत्वेन अनेकवैश्विकमञ्चेषु स्थापयितुं समर्थः अभवदिति राज्यसभायां सत्तापक्षस्य भाजपेति दलाध्यक्षः च जेपी नड्डा पहलगाम आतंकाक्रमणस्य निन्दाम् अकरोत् सः आरोपितवान् यत् यूपीए इति शासनकाले प्रतिवेशिदेशेन सह व्यापारेण सह आतंकवादस्य घटनाः अपि प्रचलन्ति स्म परम् एनडीए इत्यस्य सर्वकारः भयोत्पादनं विरुध्य कठोराचरणं कुर्वन् अस्ति इति
अदर देन जम्मू कश्मीर सारे देश में टेररिस्ट अटैक बंद हो गए हैं इस बात को हमको समझ लेना चाहिए नहीं तो कभी हैदराबाद कभी मुंबई कभी वाराणसी कभी कोलकाता कभी बेंगलुरु हर एक जगह बम ब्लास्ट दिल्ली एक नहीं तीन तीन बार हो गया फ्रॉम 2004 टू 2014 अब देखिए एक्सेप्ट जम्मू कश्मीर नो इंसिडेंट ऑफ टेररिज्म हैज टेकन प्लेस फ्रॉम 2014 टू 2025 टिल डेट टेरर इंसिडेंट्स 2004 से 14 7217 2015 से 2025 2150 80% का रिडक्शन हुआ है
रेलमन्त्री अश्विनी वैष्णवः अवदत् यत् वर्षत्रयाणाम् अल्पावधौ सर्वाणि राज्यानि वन्दे भारत इति रेलसेवया आच्छादितानि सन्ति इति सः लोकसभायाम् एकस्य प्रश्नस्य प्रत्युत्तरे सूचितवान् यत् सम्प्रति सम्पूर्णे देशे 44,000+ वन्दे भारत सेवाः प्रचलन्ति
जब शताब्दी और राजधानी इंट्रोड्यूस हुई थी, जितने समय में देश के सारे राज्यों को कवर किया गया, अगर उस समय को कंपेयर करें, करीब करीब 2 दशक से अधिक समय लगा था। आज माननीय प्रधानमंत्री जी ने वंदे भारत जब इंट्रोड्यूस की, 3 साल के शॉर्ट टाइम फ्रेम में देश के सारे राज्यों को कवर किया। 144 सर्विसेज आज वंदे भारत की चल रही है और देश भर से इसका बहुत अच्छा फीडबैक आता है।
संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सम्मेव कार्यक्रमोऽयम् आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ newsonair मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। अद्य सायंकाले इसरो सिन्थेटिक एपर्चर रडार इत्यस्य प्रक्षेपणं सफलतया अभवत्। भारतीय अंतरिक्ष अनुसंधान संघटनेन उक्तं यत् आन्ध्रप्रदेशस्य श्रीहरिकोटा क्षेत्रस्य सतीश धवन अंतरिक्ष केन्द्रात् GSLV-F16 रॉकेट इति प्रक्षेपणयानेन निसार उपग्रहस्य प्रक्षेपणं सम्पन्नम्। निसारः नासा इसरो इत्यनयोः संयुक्त वैज्ञानिकः प्रयासः अस्ति, यस्य उद्देश्यं पृथिव्याः भूमेः तथा हिमाच्छादित क्षेत्राणाम् अध्ययनम् अस्ति। सम्प्रेषणमन्त्री ज्योतिरादित्य सिंधिया इत्येषः अकथयत् यत् सञ्चारसाथीति उपक्रमस्य साहाय्येन 1 कोट्यधिकाः अवैध दूरसम्पर्कसंख्याः विच्छेद्यन्तेति। अद्य लोकसभायाम् अनुपूरक प्रश्नान् समुत्तरयन् श्री सिंधिया इत्येषः सूचितवान् यत् अस्मिन् पोर्टल इत्यत्र 35 लक्षतोऽधिकाः जनाः चरवाण्याः चौर्यप्रकरणानां नामांकनं कृतवन्तः। सः अवदत् यत् तेषु 21 लक्षतोऽधिकानि चोरितानि मोबाइल यन्त्राणि च अन्विष्टानि, 5 लक्षाधिकानि यन्त्राणि स्वामिभ्यः प्रत्यर्पितान्यपि। राष्ट्रीय शिक्षानीति 2020 इति कथं भारतीय शिक्षाम् अधिक समग्रतया सर्वसमावेशकतया भविष्यत्कालीय सज्जतायै च परिवर्तयति इति व्याख्यायमानः एकः लेखः अद्य प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वीकृतः। शिक्षामन्त्रालयस्य लेखस्य प्रतिक्रियारूपेण श्रीमोदी केन्द्रीय शिक्षामन्त्रिणः धर्मेन्द्रप्रधानस्य बहुभाषिकां सर्वसमावेशीयां शिक्षां व्यापकरूपेण प्राप्तं भवतीति शीर्षके राष्ट्रिय दैनिके लिखितं लेखं समुद्धरत्। भारतीय तटरक्षकदलेन संयुक्त अरब अमीरात देशस्य राष्ट्रिय रक्षक आदेशेन च अद्य नवदेहलीनगरे समुद्रीय सुरक्षायाः सुरक्षायाश्च सहकारेति विषये सन्धिपत्रे हस्ताक्षराणि कृतानि। अस्योद्देश्यं द्विपाक्षिक समुद्रीय सहकारं वर्धितुम् अस्मिन् क्षेत्रे सुरक्षितं सुस्थिरं च समुद्रीय पर्यावरणस्य कृते योगदानं दातुञ्च अस्तीति। प्रवर्तन निदेशालयः छत्तीसगढ़स्य अनेकेषु स्थानेषु कथित चिकित्सा आपूर्ति भ्रष्टाचार प्रकरण विषये अन्वेषणं कुर्वन् अस्ति। एकस्मिन् वक्तव्ये ईडी इत्यनेन उक्तं यत् एते परिसराः मोक्षित कार्पोरेशन इत्यस्य शशांक चोपड़ा इत्यनेन उतो वा छत्तीसगढ़ चिकित्सा सेवा निगम लिमिटेड इत्यस्य अधिकारिभिः सह सम्बद्धाः सन्तीति। पद्म पुरस्कारेभ्यः नामांकनस्य अनुशंसानाञ्च अन्तिमा तिथिः अगस्तमासस्य 15 दिनांकपर्यन्तं विस्तारितास्ति। पुरस्कारार्थं नामांकनानि केवलं राष्ट्रिय पुरस्कार पोर्टल इत्यत्र अन्तर्जालद्वारा एव स्वीकरिष्यन्ते। प्रातः कालादेव निरन्तरं प्रचण्डवृष्ट्याः पहलगाम बाल्टाल इत्येतयोः आधारशिबिरयोः वर्तमाना श्रीअमरनाथजी यात्रा अद्य स्थगिता अस्ति। एतदतिरिच्य यात्रामार्गेषु विद्यमानायाः ऋतोः दृष्ट्या प्रचुरसावधानतया वर्तमानः श्री अमरनाथजी यात्रावाहनसमूहः श्वः जम्मूनगरस्य भगवतीनगरतः न गमिष्यति। राष्ट्रपतिपदासीना द्रौपदी मुर्मू इत्यसा अद्य पश्चिमबंगस्य नादियामण्डले आयोजिते अखिल भारतीय वैद्यकीय विज्ञान संस्थानस्य कल्याणी इत्यत्र उद्घाटन दीक्षांत समारोहे भागम् अगृह्णात्। आयुष अथ स्वास्थ्य परिवार कल्याण राज्यमन्त्री प्रतापराव जाधवः अस्मिन् अवसरे उपस्थितः आसीत्। भारतस्य ऋतुविज्ञान विभागेन अद्य पूर्वी राजस्थाने पश्चिम मध्यप्रदेशे च अत्यन्तं प्रचण्ड वृष्टेः रेड अलर्ट इति संचेतना प्रकाशिता। बिहारस्य हिमाचल प्रदेशस्य पश्चिमोत्तर प्रदेशस्य च केषुचित् स्थानेषु प्रचण्ड वृष्टेः पूर्वानुमानं कृतमस्ति। भारतस्य ऋतुविभागानुसारं हिमाचल प्रदेशे जम्मू कश्मीरे उत्तराखण्डे च अत्यधिक वृष्टिः नारंगवर्णीय संचेतना प्रसारिता अस्ति। रूस जापान हवाई देशानां केषुचित् भागेषु सुनामी तरंगाः आगताः। रूसी तटस्य समीपे विशाल भूकम्पानन्तरं अमेरिका सहितानां 12 अधिकेभ्यः देशेभ्यः संचेतनाः सन्ति प्रकाशिताः। अद्य प्रातः रूसस्य कामचाट्का द्वीप समूहे 8.8 तीव्रतायाः प्रबलः भूकम्पः आगतः इति वार्ताः।